राम गीता जी का पाठ तीसरा अध्याय प्रारंभ से श्लोक 10 तक। राम
वसुदेव सुतं कंसदानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्। ओम श्री परमात्मने नमः। अस तृतीयोऽध्याय अर्जुन उवाच जायसि चेत् कर्मणस्ते मथा बोधिर्जनार्दन तत्किं कर्मणि घोरे मां नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वदनेश्चेत्य येन श्रेयोऽहमाप्नुयाम्। श्री भगवान् उवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नभ ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिनाम् न कर्मणामनारम्भात् नैष्कर्म्यम् पुरुषोऽश्नुते न स सन्न्यसनादेव सिद्धिं समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत् कार्यते ह्यवसः कर्म सर्व प्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्य यहास्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते। यस्तेन्द्रियाणि मनसा नियाम्यारभते गुण कर्मेन्द्रियैः कर्मयोग मसक्तः स विशिष्यते। नियतं कुरु कर्म त्वं कर्म ज्ञायो ह्य कर्मण शरीरयात्रापि ते न प्रसिद्धेर कर्मण यज्ञार्थात् कर्मणो न्यत्र लोकोऽयं कर्म बन्धन तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञः प्रजहसि स्वा पुरो वाच प्रजापते अनेन प्रसविष्यध्व मेषवोऽस्तेष्टकामधो सह यज्ञः प्रजहसि स्वा पुरो वाच प्रजापते अनेन प्रसविष्यध्व मेषवोऽस्तेष्टकामधो वसुदेव सुतं देवं कंसदानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम् हरे शरणम 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 हरे शरणम।